सर्वेभ्यो नमः। गतवर्गे वयं क्रियापदस्य विभजनकार्यं कृतवन्तः। तत्र कृष्णः अर्जुनम् उपदिशति इति वाक्यम् अस्ति, तस्य समानार्थकवाक्यं कृष्णः अर्जुनस्य उपदेशं करोति इति। तादृश क्रियापदस्य विभजनम् इत्युक्ते अर्जुनम् उपदिशति इति क्रियापदमासीत्, तत्र उपदिशति इति क्रियापदस्य स्थाने उपदेशं करोति इति नूतनक्रियापदम् उपयुज्य समानार्थकवाक्यं रचितवन्तः वयं। तत्र पुटसङ्ख्या 60 पेज् 60, 61, 62 तत्र किञ्चित् अभ्यासं कृतवन्तः। तत्र गृहपाठः अपि आसीत् इति मन्ये। तत्र चतुर्थ अपि पञ्चम अभ्यासः पुटसङ्ख्या 62 मध्ये। तत्र मधुसूदन महोदय एकम् अथवा द्वे तत्र वदति वा
महोदय?
62 मध्ये
यतोदाहरणं वाक्यानि रचयत। उदाहरणं नमनं करोषि, नमसि। दहनं करोति सः, दहनं करोषि।
तत्र तत्र किम् अस्ति महोदय, तत्र पूर्वं वयं किं कृतवन्तः? पुटसङ्ख्या 60 पश्यतु, तत्र किम् आसीत्?
60 मध्ये
उद्घाटयति, उद्घाटनं करोति, सत्करोति, सत्कारं करोति इति अस्ति। तस्य विपरीतं वयम् अत्र कुर्मः, रिवर्स् विभजनं न कुर्मः, संयुक्तक्रियापदम् इति तादृशरूपम् इदानीं वदामः। नमसि, पूर्वं नमसि इति आसीत्, नमनं करोषि इति नमसि, नमनं करोषि इति भवति। अवगच्छति वा महोदय?
नमनं करोषि, नमसि, सः नमसि।
न, इदानीं दहनं करोति।
सः दहनं करोति
इति अस्ति तस्मिन् स्थाने। अस्तु अस्तु, अन्य कोऽपि वदतु, भवान् अवगच्छति एकनिमिषः अत्र। चिन्ता मास्तु महोदय, चिन्ता मास्तु। अस्तु, तत्र गीताञ्जलि भगिनी वदति वा?
आं महोदय, दहनं करोति, दहति।
सः दहति इति वाक्यमस्ति, तस्य समानार्थकवाक्यं सः दहनं करोति। सः दहनं करोति, एतदेव क्रियापदस्य विभज्य कार्यम् इति, विभजनम् इति उक्तवन्तः। अस्तु, समीचीनं। नरेश् महोदय अग्रे।
आं महोदय, सङ्ग्रहणं कुर्मः,
सङ्गृह्णामः वयं सङ्गृह्णामः। समीचीनं महोदय। उषा भगिनी अग्रे।
अधिगमनं करोति, एषः अधिगच्छति।
गमनम् अस्ति चेत् गच्छति इति, अतः अधिगमनम् अधिगच्छति। समीचीनं भगिनी। वेणुगोपाल महोदय अग्रिमं करोति वा?
आम् महोदय, जीवनं कुरुथ, युवां जीवथ।
तत्र अस्तु, समीचीनं। तत्र पुरुषवचनं
यूयं महोदय,
यूयं तत्र पुरुषवचनं वदतु महोदय, पुरुषवचनं कुरुत इति, कुरुत,
कुरुत, तौ कुरुत, चिन्तनं कुरुत,
मध्यमपुरुष, मध्यमपुरुष। भानुचेतनी महोदय वदतु,
तौ जीवत,
तौ न, कुरुत इति वनचितिनि महोदय
जीवनं कुरुत महोदय जीवनं कुरुत मध्यमपुरुष बहुवचनम् अतः मध्यमपुरुष बहुवचनं सर्वनामपदमस्ति सः
यूयं जीवनं कुरुत इति वाक्यमस्ति इदानीं जीवनं कुरुत इति स्थाने किं भवति एकमेव क्रियापदम् इति स्थाने इदानीं जीवनं कुरुत इति स्थाने
जीवति यूयं जीवत
हा यूयं जीवत
जीवत अथवा जीवित महोदय
हा तद् एषः शङ्का एषा शङ्का मम मनसि अपि आगतं तत्र जीवति इति तत् तत्र हा जीवित अथवा जीवत इति प्रायशरूपं
जीवत इति अस्ति महोदय अत्र उत्तरम् अस्ति 203 पेज् मध्ये
अस्तु अस्तु जीवत अस्तु हा अस्तु जीवत इति अस्ति अस्तु हा अग्रे शोभा भगिनी नमस्कारः
नमस्ते महोदय
हा तत्र जीवनं कुरुत इति कृतं पेज् 62 मध्ये अग्रिमम् अस्ति चिन्तनं कुरुतः एकमेव नमनं करोषि नमसि इति इदानीं चिन्तनं कुरुतः क्रियापदम्
चिन्तनं कुरुतः चिन्तितवन्तः
न तत्र पूर्व
चिन्तितः नो चिन्तयितः
हा हा एकनिमिषं भगिनि हा तत्र गतवर्गे वयं किं कृतवन्तः क्रियापदं यदासीत् तस्य विभजनं कृतवन्तः उपदिशति इति स्थाने उपदेशं करोति इति
आं महोदय
इदानीं तस्य विपरीतं कुर्मः विभजनं कृत्वा क्रियापदद्वयं दत्तमस्ति तत्र मूलक्रियापदं किम् अस्ति इति लेखनीयमस्ति अथवा वक्तव्यमस्ति अत्र
ओ चिन्तति चिन्तयति चिन्तति
हा चिन्तयति एकवचने अस्ति कुरुतः किमस्ति वचनं किं
कुरुतः द्विवचने प्रथमपुरुष
अतः
पठति पठतः
चिन्तयतः चिन्तयतः इति प्रायः अस्ति चिन्तयतः रघुपति महोदय समीचीनं वा धन्यवादः महोदय चिन्ता मास्तु तत् समीचीनमेव अस्ति
तौ चिन्तयतः
हा समीचीनं धन्यवादः हा अस्तु अग्रे
जीवति न चिन्तयति
हा
किं महोदय महोदय न चिन्तयति
न चिन्तयति अस्तु न चिन्तयति अस्तु समीचीनं
चिन्तयति
अस्तु इदानीं बालचेतनी महोदय भवानेव करोतु अग्रिमम् अन्वेषणं
कः महोदय तत्
अन्वेषणं कुर्वः
अन्वेषणं कुर्वः महोदय तत् उत्तमपुरुषः द्विवचनं आवाम् अन्वेषणं कुर्वः आवाम् अन्वेषावः आवाम् अन्वेषावः
अन्वेषावः अथवा अन्वेषयावः किमस्ति रघुपति महोदय
अन्विष्यावः
अन्विष्यावः अस्तु अन्विष्यावः अन्विष्यावः
अन्वेषयति इति अस्ति चिन्तयामि अन्वेषयति अतः अन्विष्यावः
अन्विष्यावः तत्र यकारः
अन्वेषयति
भवति अतः चिन्तयति इति अत्र
चिन्तयति
चुरादिगणीय
प्रविशति
इति
प्रवेशनं समीचीनं भगिनि समीचीनं प्रविशति प्रवेशनं करोति समीचीनं भगिनि समीचीनं धन्यवादः अस्तु अग्रे उषा भगिनि
क्षम्यतां महोदय उत्तरं किम् अस्ति क्षम्यतां महोदय
अन्वेषणं कुर्वः तत्र महोदय
अन्विष्यावः
अन्विष्यावः
धन्यवादः
परिहरणं कुर्वन्ति ताः परिहरन्ति
ताः परिहरन्ति अस्तु समीचीनं वेणुगोपाल महोदय अग्रे वेणुगोपाल महोदय
महोदय क्षम्यताम् छेदनं करोति सा छेदति
न पूर्वपुटे अस्ति
पूर्वमस्ति चिनत्ति
छिनत्ति इति एतत् सरलम् इति न चिन्तयन्तु कर्तुं शक्नुमः किन्तु सर्वदा सम्यक्तया कर्तुं शक्नुमः इति न चिन्तयन्तु अत्र सर्वं यत् आवश्यकं तद् न दत्तमस्ति अत्र अतः उत्तरं यदि पश्यन्ति तत्र दोषः नास्ति अस्तु अस्तु अग्रे गीताञ्जलि वदतु 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 महोदय
प्रयत्नं करोमि
अस्तु अस्तु
भ्रमणं करोमि अहं भ्रमामि
तत् प्रायशः सत्यमस्ति भ्रमामि भ्रमति भ्रमामि समीचीनं महोदय अर्ज अग्रे वंशीसुधा भगिनी अग्रिमं वदति वा
नमस्ते महोदय
नमस्कारः
अर्जनं करोमि भवान् अर्जयति
अर्जयति प्रायशः तदेव अस्ति भवान् अर्जयति
महोदय
अर्जति अथवा अर्जयति
महोदय अन्वेषणं कुर्मः भवान् किं वदामः अन्विष्यामः अहं
अन्विष्यावः
अन्विष्यावः आं महोदय
अन्विष्यामि इति अन्विष्यावः
धन्यवादः
अस्तु अग्रे अग्रिम अभ्यासः अपि अस्ति तत्र शोभा भगिनी अग्रिमं करोति वा तत्र
आं महोदय परिहरति चेत् भ्रमणम् अर्जनम् ओके यथोदाहरणं वाक्यानि रचयत उदाहरण वाचनं करोमि श्लोकः अहं श्लोकस्य वाचनं करोमि स्मरणं करोति इति अस्ति अहं दत्तमस्ति कः मम स्मरणं करोति
आवरणे यत् पदं दत्तमस्ति तस्य का विभक्ति आवश्यका
तत्र षष्ठीविभक्ति उपयोगं करणीयम्
सत्यं
लेखनं कुर्मः इतिहासः इतिहासस्य लेखनं कुर्मः
समीचीनं भगिनि अस्तु अग्रे नरेश महोदय
वयम् इति योजयामः महोदय
तदपि वक्तुं
वयम् इतिहासः
सत्यं 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 तदपि साधु यदि न वदामः वयम् इति न वदामः दोषः नास्ति खलु कुर्मः इति तत्र अन्तर्भूतः अस्ति वयम् इति
पूजनं कुर्वन्ति देवताः ते देवतानां पूजनं कुर्वन्ति
तत्र लिङ्गं किम् अस्ति महोदय तत्र देवता
स्त्रीलिङ्गं
स्त्रीलिङ्गं अस्तु देवताः इदानीं तस्य षष्ठी एकवचनं बहुवचनं किम् आवश्यकम् बहुवचनं देवता देवतानां तावदेव तावदेव तावत् समीचीनमेव अस्ति देवतानाम् एव अस्ति समीचीनं महोदय अग्रे रघुपतिमहोदय
हा महोदय धारणं करोषि अत्र मध्यमपुरुषः अस्ति एकवचनम् अस्ति अतः त्वं वस्त्रं वस्त्रस्य धारणं करोषि
हा तावदेव समीचीनम्
अत्र उत्तरं न दत्तमस्ति महोदय
अस्तु अहं भवन्तं न पृच्छामि अस्तु अस्तु अग्रे वेणुगोपाल महोदय
आम् महोदय अर्जुनं करोति ज्ञानम् अर्जुनं करोति तत्र ज्ञानम् इति दत्तमस्ति अर्जुनं करोति
आवरणे यत् पदमस्ति तस्य षष्टिविभक्तिः आवश्यकमस्ति महोदय
अस्तु अर्जुनस्य अर्जनं करोति
ज्ञानस्य समीचीनं ज्ञानस्य
अर्जनं करोति
सः ज्ञानस्य अर्जनं करोति अथवा सः अथवा सा ज्ञानस्य
सः ज्ञानस्य अर्जनं करोति
करोति समीचीनं महोदय धन्यवादः अग्रे उषा भगिनी
आह्वानं कुर्वन्ति सारथिः ताः सारथेः आह्वानं कुर्वन्ति
सारथिः इकारान्तपुल्लिङ्ग सारथेः समीचीनं प्रश्नः आसीत् वा कस्यापि अस्तु वैद्यनाथन् महोदय भवानपि वक्तुम् इच्छति वा षष्टिविभक्ति
अहं शृणोमि महोदय
अस्तु 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 एकवारं पृष्टवान् अस्तु अस्तु भानुचतनी महोदय अग्रे
आह्वानं कुर्वन्ति
तत्कृतं
स्थापनं करोति सः रथस्य स्थापनं करोति
समीचीनं महोदय अग्रे गीताञ्जलि भगिनि
हृदयानि विदारणं करोति हृदयाणां विदारणं करोति
हृदयानां विदारणं करोति समीचीनं भगिनि अस्तु अग्रे मंशीसुधा भगिनि
आं महोदय उद्घाटनं करोषि कार्यक्रमाः तत् मध्यमपुरुषे अस्ति त्वं कार्यक्रमाणाम् उद्घाटनं करोषि
समीचीनं भगिनि अस्तु तत्र क्रियापदस्य विभजनम् इति तादृश किमपि कार्यं नासीत् केवलं षष्टिविभक्ति एव तत्र अभ्यासः अस्तु अस्तु इदानीम् अग्रे गच्छामः इदानीं षष्टिविभक्ति कृतवन्तः अग्रे सप्तमीविभक्ति इति विषयः अस्ति अस्तु तत्र वेणुगोपाल महोदय तत्र पठति वा
आं महोदय स्वधर्मे निधनं श्रेयः इति स्वधर्मे निधनं श्रेयः उच्चैः पठत अवगच्छत च तत्र महाराजः गजे उपविशति खगाः आकाशे विहरन्ति आञ्जनेयः गजे विलसति छात्राः विद्यालये पठन्ति
तावदेव महोदय समीचीनं अस्तु तत्र सप्तमीविभक्ति इति विषयः तत्र सप्तमीविभक्ति इति तस्य कार्यं किम् अस्ति इत्युक्ते देशे कुत्र किं भवति इति तस्य कार्यम् अस्ति देशे अथवा काले सायङ्काले अथवा अस्मिन् देशे इति यत्र किमपि अस्ति इति तद् सूचयति तदेव सप्तमीविभक्तेः कार्यं तत्र महाराजः अस्ति गजः अस्ति महाराजः गजे उपविशति इति अस्ति खगाः सन्ति आकाशः अस्ति, खगाः आकाशे विहरन्ति. खगः इत्युक्ते किं? कः? ख इति आकाशसूचकपदम् अस्ति. ख यः यः आकाशे गच्छति सः खगः इति, पक्षिः इति खगः. खगाः
यः के के गच्छति
के के
सत्यं सत्यं यः के गच्छति सः खगः सत्यं. खगः आकाशः.
प्रश्नः अपि एरोप्लेन् अपि खगः अस्ति अस्ति वा?
तस्य नामपि खगः इति वक्तुं शक्नुमः. यः किमपि यः किमपि के
यन्त्रखगः
यन्त्रखगः अथवा खगः अपि तदपि
समीचीनमेव.
सर्वे सर्वे केवलं प्रयोगः खगः इत्युक्ते पक्षी इति प्रयोगः अस्ति अस्ति किन्तु किन्तु खग इत्युक्ते तदेव अस्ति. के यः के गच्छति सः खगः इति.
अस्तु
आञ्जनेयः.
विहरन्ति डयन्ति समानपदम् अस्ति वा महोदय?
फ्लै इति विहरन्ति इत्युक्ते विहारं अत्र स इतः ततः गच्छति इति तादृश.
डयन्ति अपि फ्लैङ्ग् अस्ति न महोदय? डयन्ति आकाशे
तद् डयति तद् फ्लै अस्ति. डयति इति फ्लै अस्ति. एतत् विहरति इत्युक्ते
कर्तुं शक्नुमः.
यथा वयं दृष्टवन्तः तत्र
भीम
कथायां विहरन्ति इति यथा आसीत्. अस्तु तत्र आञ्जनेयः अस्ति. ध्वजे विलसति. विलसति इत्युक्ते अत्र किं?
लसतु शैने
विलसति. छात्राः पठन्ति. छात्राः कुत्र पठन्ति? छात्राः विद्यालये पठन्ति. अत्र सप्तमीविभक्तिरूपं कस्मिन् प्रसङ्गे तस्य प्रयोगः भवति इत्युक्ते कुत्र अथवा कदा इति यत्र प्रश्नः भवति तत्र उत्तरस्य रूपं भवति सप्तमीविभक्तिरूपं. कुत्र पठति, कुत्र गच्छति, कुत्र विलसति, कुत्र गच्छति न कुत्र विहरति, कुत्र विलसति, एतादृश कुत्र इति. केवलं कुत्र गच्छति तत्र तु द्वितीयविभक्तिरूपमपि समीचीनमेव अस्ति. अस्तु अग्रे इदानीम् एतत् तत्र गजे आकाशे ध्वजे विद्यालये तत्र समानं किम् अस्ति अत्र पदानां?
सर्वे सर्वे पुल्लिङ्गशब्दः अस्ति महोदय.
पुल्लिङ्गशब्दः अपि
एकार
अकारः अकारान्तपुल्लिङ्गप्रातिपदिकं अकारान्तपुल्लिङ्गप्रातिपदिकम् अस्ति. गजे आकाशे ध्वजे विद्यालये. समीचीनं समीचीनं. इदानीम् अग्रिमं पश्यामः तत्र. वैद्यनाथन् महोदय भवान् पठति वा अग्रिमं तत्र शिशुः?
पठामि. शिशुः प्रेङ्खायाम् अस्ति. प्रेङ्खायाम् अस्ति. चित्रं पेटिकायाम् अस्ति. वर्णाः पिच्छिकायां सन्ति. जनाः वाटिकायां चलन्ति.
धन्यवादः महोदय. अस्तु तत्र प्रेङ्कायां वेदिकायां पिच्छिकायां वाटिकायां तत्रापि सप्तविभक्तिरूपमेव अस्ति. किन्तु तत्र भेदः कः पूर्वस्मिन् तत्र गजे आकाशे ध्वजे विद्यालये अपि अत्र प्रेङ्कायां वेदिकायां पिच्छिकायां वाटिकायां मध्ये? आकारान्त स्त्रीलिङ्गं स्त्रीलिङ्गपदं स्त्रीलिङ्गपदम् अस्ति. प्रियङ्का प्रियङ्कायां, वेदिका वेदिकायां, पिच्छिका पिच्छिकायां, वाटिका वाटिकायाम् इति अस्ति. हा अस्तु, तत्र याम् इति तत्र रूपं भवति सप्तमीभक्ति आकारान्तस्त्रीलिङ्गपदम् अस्ति चेत्. हा अस्तु, अग्रे
पिच्छिका इत्युक्ते किं महोदय?
वर्णः
पिच्छिका अस्ति वा?
वर्णः पिच्छिकायां सन्ति. फेदर् प्रायशः समीचीनम् अस्ति. किं महोदय?
समीचीनं,
धन्यवादः. अस्तु, तत्र पिच्छिका पिच्छिकायाम्. अस्तु, अग्रे इदानीं तत्र इदानीं पुल्लिङ्गरूपं दृष्टवन्तः, स्त्रीलिङ्गरूपम् अकारान्त आकारान्त. इदानीं अग्रे पश्यामः तत्र किमस्ति. मधुसूदन मोदी अग्रे पठति वा? बाणाः.
बाणाः सूनीरे सन्ति. योद्धारः रणक्षेत्रे युद्धन्ते. शान्तः कुटीरे निद्राति. बालः गृहे तिष्ठन्ति.
तिष्ठति. हा, अत्र किम् अस्ति? तत्र तृणीरे, रणक्षेत्रे, कुटीरे, गृहे इति अकारान्त नपुंसकलिङ्गपदं. समीचीनं. हा समीचीनं. हा, इदानीं तत्र पुल्लिङ्ग स्त्रीलिङ्ग अपि नपुंसकलिङ्गकृतम् अकारान्त. इदानीम् अग्रिमं भवति. हा, तत्र ध्वनिः अस्ति, कोऽपि प्रश्नः अस्ति वा? हा अस्तु, हा अस्तु, अग्रे उषा भगिनी अग्रे पठति वा?
आम् आम् महोदय. औषधं कूप्याम् अस्ति. नौका नद्याम् अस्ति. वस्तूनि प्रदर्शिन्यां सन्ति. जलं वाप्याम् अस्ति.
हा अस्तु, तत्र कूप्यां, नद्यां, प्रदर्शिन्यां, वाप्यां, तत्र प्रथमविभक्तिरूपं किम् अस्ति? तत्र
इकारान्त.
हा,
इकारान्त स्त्रीलिङ्ग अस्ति. कूपी, नदी, प्रदर्शिनी, वापी.
हा, वापी इति अस्ति. हा, इकारान्त स्त्रीलिङ्गपदं.
स्त्रीलिङ्गपदं,
स्त्रीलिङ्गपदं. समीचीनं भगिनि. हा अस्तु, अग्रे तत्र शोभा भगिनी अग्रे पठति वा?
आम् महोदय. क्षम्यतां, किङ्किण्यौ पादयोः स्तः, भटाः रथयोः सन्ति, फलानि वृक्षयोः सन्ति, कङ्कणानि हस्तयोः सन्ति.
तत्र किं भवति? पादयोः, रथयोः, वृक्षयोः, हस्तयोः.
तत्र पदद्वयं सन्ति महोदय. पादद्वयं रथयोः नास्ति, वृक्षयोः.
रथयोः, रथयोः वचनं किम् अस्ति? रथयोः,
रथः पुंलिङ्ग. रथयोः द्वयोः, द्वे.
हा, तत्र किमस्ति? पादयोः रतयोः वृक्षयोः हस्तयोः हस्तः तत्र हस्ते इति भवति वृक्षः वृक्षे इति भवति रतः रते इति भवति पादे इति भवति किन्तु अत्र पादयोः अस्ति रतयोः अस्ति वृक्षयोः अस्ति हस्तयोः अस्ति अतः
द्वयं
द्विवचने द्विवचने अस्ति हा पूर्वम् अस्ति आसीत् हा पूर्वं सप्तमीभक्ति एकवचनरूपम् आसीत् इदानीं सप्तमीभक्ति द्विवचनरूपं द्विवचने अस्ति समीचीनं भगिनि हा इदानीम् अग्रे तत्र वंशीसुधा भगिनी अग्रे
आं महोदय पर्णानि लतयोः सन्ति यात्रिकाः नौकयोः सन्ति वस्त्राणि पेटिकयोः सन्ति पुस्तकानि निधानिकयोः सन्ति अत्र सर्वे स्त्रीलिङ्गे द्विवचने अस्ति महोदय लता नौका पेटिका निधानिका
आकारान्त स्त्रीलिङ्गपदं द्विवचन सप्तमीभक्ति द्विवचनरूपं द्विवचनरूपं समीचीनं भगिनि हा अस्तु अग्रे वेणुगोपाल् महोदय पठति वा अग्रे
पर्णानि लतयोः सन्ति इति न महोदय
जलं अग्रिमपुटे
अस्तु अस्तु जलं द्रोण्योः अस्ति मीनाः नद्योः सन्ति तैलं द्रव्योः अस्ति द्रव्योः अस्ति मशी पुनः पुरण्योः पुनः पूरण्योः अस्ति
तत्र किम् अस्ति द्रोण्योः इति तत्र पदं किम् इति जानाति वा
द्रोण्योः इत्युक्ते तत्र सप्तमी द्विवचनम् अस्ति महोदय
द्विवचनं हा समीचीनं नद्योः तत्र पदं किम् अस्ति
नद्योः नदी श्रीलिङ्गे श्रीलिङ्ग इकारान्त श्रीलिङ्गम् अस्ति
इकारान्त दीर्घ इकारान्त समीचीनं महोदय दर्भ्योः इति तत्र
द्रव्योः इति
दर्भ्योः
न
एतदपि स्त्रीलिङ्गपदम् अस्ति अन्य कोऽपि वदति वा तावदेव महोदय पुनः पूरण्योः तत्र पुनः तत्र श्रीलिङ्ग नद्योः नदी पूरण्योः पूरणी पुनः पूरणी इत्युक्ते रीफिल् पुनः पूरणी पुनः पूरणी तत्र सर्वे किम् अस्ति तत्र ईकारान्त स्त्रीलिङ्गपदं तत्र सप्तमीभक्ति
महोदय पुनः पूरण्योः इत्युक्ते एकवारं रीफिल्
पुनः तत्र न दत्तमस्ति भगिनि कः एकवारं वा द्विवारं वा तत् न जानीमः केवलम् एकवारं तु कर्तुं शक्नुमः तावत् जानीमः द्विवचने अस्ति इत्युक्ते नदी नद्यौ नद्यः पुनः पूरण्यौ स्तः इति पुनः पूरण्यौ स्तः
द्विवचन अस्ति अपि च द्विवारं रीफिल्
अस्तु भगिनि अस्तु भगिनि हा अस्तु हा अस्तु हा इदानीं तत्र ईकारान्त स्त्रीलिङ्गपदस्य अपि द्विवचनरूपम् इदानीं जानीमः अस्तु अग्रे तत्र
महोदय मशि इत्युक्ते इङ्क् अस्ति वा?
इङ्क् 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 सत्यं
पुनः अव्ययमस्ति वा महोदय? पुनः
पुनः प्रायशः अव्ययमेव अस्ति महोदय. अस्तु, तत्र कः एतावत् न पठितवान्? नरेश महोदय, भवान् पठति वा अग्रे?
चक्राणि स्यन्दनयोः सन्ति, अश्रूयोः सन्ति, अलङ्कारः द्वयोः अस्ति, चित्राणि पुस्तकयोः सन्ति.
हा, तत्र किम् अस्ति?
नपुंसकलिङ्गवचने.
हा, तत्र प्रथमविभक्तिरूपम् एकवचने किं किम् अस्ति इति एकवारं वदतु महोदय. तत्र
चन्दनं, नेत्रं, द्वारं, पुस्तकं.
पुस्तकं, समीचीनं महोदय. हा, समीचीनं. हा, अस्तु. हा, अग्रे वदतु महोदय.
सप्तमे विभक्तिवचने चन्दनयोः, नेत्रयोः, द्वारयोः, पुस्तकयोः
इति अस्ति. समीचीनम्, अस्तु. हा, इदानीम् अन्तिमविषयः अस्ति, तत्र बहुवचने सप्तविभक्तेः रूपं किम् इति. तदेव अग्रे रघुपतिमहोदय अग्रे पठति वा?
हा महोदय. जनाः मार्गेषु गच्छन्ति, खड्गाः कोशेषु सन्ति, वानराः वृक्षेषु क्रीडन्ति, विचाराः ग्रन्थेषु भवन्ति. अस्ति, अत्र बहुवचनमस्ति.
बहुवचनं, बहुवचनं. तत्र प्रथमविभक्ति एकवचनरूपम् एकवारं वदतु महोदय. तत्र
जनः,
सप्तमविभक्ति
मार्गे,
प्रथमाविभक्ति एकवचनरूपं,
मार्गे कोशे,
प्रथमाविभक्ति, प्रथमाविभक्ति एकवचनरूपं.
मार्गः अस्ति वा?
मार्गः,
मार्गः, कोशः, वृक्षः, ग्रन्थः.
हा, तावदेव, समीचीनं. किन्तु धन्यवादः, इदानीं भवान् नूतन अभ्यासः सूचितवान्. धन्यवादः. अस्तु, छात्राः एव सर्वे सर्वं विचारः मनसि स्थापयन्ति.
महोदय, एकः प्रश्नः महोदय, अत्र ईकारान्त स्त्रीलिङ्गमस्ति न महोदय? द्विवचने जलं द्रोण्योः अस्ति, तत्र अन्ति सर्वे जलम् इति नपुंसकलिङ्गं बहुवचनरूपं नास्ति महोदय. जलं द्रोण्योः अस्ति, अस्ति जलं
जलं सर्वत्र एकवचने एव
अस्ति. अस्तु, तद् इदानीं मीनाः नद्योः सन्ति, तत्र सम्यक् एव. तैलम् अपि बहुवचनरूपं तैलम् एव अस्ति महोदय?
तैलं प्रायशः तादृशरूपं नास्ति, जलम् इव नास्ति इति मन्ये भगिनि. तत्र तैल,
तत्तु लिक्विड् फार्म् एव अस्ति, अहं चिन्तयामि.
किन्तु किन्तु तत्र सम्यक् न जानामि किन्तु
महोदय, द्रव्योः द्विवचने, किन्तु तैलम् अस्ति एव अस्ति.
सत्यं भगिनि, किन्तु प्रश्नः अत्र अस्ति, तत्र यदि तैलद्वयं, तैलं, तैले, तैलानि इति वक्तुं शक्नुमः, तत्र कुत्रापि प्रयोगः भवति इति, तदेव प्रश्नः खलु भगिनी? किन्तु जलम् इति विषये तादृशप्रयोगः न भवति. हा, न भवति. किन्तु तैलम् इति विषये प्रायशः भवति भगिनी. उदाहरणं न स्म न दृष्टवान्. हा, किन्तु प्रश्नः उत्तममस्ति.
तैलमस्ति, तैलं, तैलं.
अतः अहं चिन्तयामि, हा, तत्र नारिकेलतैलम् अस्ति, अतः तत्र अनेकानि तैलानि सन्ति इति प्रायशः वक्तुं शक्नुमः. सत्यं भगिनि, प्रश्नः तु सम्यक् अस्ति, किन्तु न जानामि. अन्य अस्तु इदानीं तत्र शाकाः सर्पाः इति अस्ति तत्र अन्य कोऽपि न एतावत् पठितवान् बालचैतन्य महोदय पठति वा अस्तु हा प्रश्नः अस्ति तदनन्तरं भवानेव पठतु महोदय हा गीताञ्जलि भगिनी
मन्ये तैलम् अस्ति अत्र दत्तम् इत्युक्ते एकं प्रकारतैलम् अस्ति यदि यदि भिन्न प्रकार अस्ति तदनन्तरं तैलं तैले
एतदेव अहमपि सत्यं भगिनि एतदेव अहमपि चिन्तितवान् तत् सत्यम् अस्ति वा अस्तु कुत्र अस्ति एतत्
न अहं मन्ये
अहमपि मन्ये भगिनि किन्तु न जानामि तत्र यदि वयं कुत्रापि एषः एतत् एतं प्रयोगं कुत्रापि पश्यामः
दृश्यामि
महोदय डिक्शनरि मध्ये अस्ति नारिकेलतैल लवङ्गतैल जयपालतैल बुद्धितैल पीडाज्वालतैल भिन्नभिन्नतैल अस्ति सन्ति महोदय
अस्ति वा एतद् वाक्यमस्ति वा भिन्नभिन्नतैलानि सन्ति इति वाक्यमस्ति वा भगिनि तत्र भवती वदति अस्तु अहं केवलं किन्तु किन्तु एतद् वाक्यं तदेव वाक्यं तैलानि सन्ति इति अहं न दृष्टवान् अतः अहं न जानामि यदि तद् साधुप्रयोगः न वा इति अस्तु भानुचतनि महोदय अग्रे पठति वा
सर्पाः शाखासु सञ्चरन्ति वार्ताः पत्रिकासु सन्ति सिंहाः गृहासु वसन्ति छात्राः वाटिकासु विहरन्ति सर्वं प्रथमा बहुवचनं
सप्तमी बहुवचनं सप्तमी बहुवचनं
क्रियापदं
तत्र तत्र
शाखासु रामेषु
शाखासु एकवारं महोदय महोदय शाखासु पत्रिकासु गुहासु वाटिकासु तत्र प्रथमविभक्ति एकवचनरूपं किम् अस्ति
शाखा पत्रिका गृहं
न न एतत् गुहा गुहा अस्ति गुहा
गुहा
गुहा आम् 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 क्षम्यतां गुहा वाटिका आकारान्त स्त्रीलिङ्गप्रातिपदिकमस्ति
स्त्रीलिङ्गपदं समीचीनं महोदय समीचीनम् अस्तु
महोदय महोदय अमरकोशे तैलम् इति नपुंसकलिङ्गम् इति दत्तमस्ति
सत्यं महोदय तैलम् इति अत्रापि तैलम् इति नपुंसकलिङ्ग एव अस्ति तैलं दर्भ्योः अस्ति तैलं नपुंसकलिङ्गम् इव अस्ति किन्तु दर्भी दर्भी इति स्त्रीलिङ्गे अस्ति महोदय तत्र मध्ये यदस्ति तदेव विषयः खलु द्रोणी द्रोण्योः नदी नद्योः दर्भी दर्भ्योः पर पुनपूरणि पुनपूरण्योः तत् स्त्रीलिङ्गे अस्ति किन्तु तत्र तस्य पूर्वं जलं मीनाः तैलं मशी तत्तु स्त्रीलिङ्गमिति न वदामः केवलं मध्ये यदस्ति तत् तद् स्त्रीलिङ्गरूपम् अस्ति सप्तविभक्ति द्वितीया द्विवचनं रूपं समीचीनं वा महोदय
महोदय अहम् एकं श्लोकं पश्यामि तैलानि इति दत्तं मध्ये
कुत्र भगिनि
दैवं स सञ्चित्य अपि आत्मनः उद्योगं न त्यजेत् अनुद्योगेन तिलेभ्यः तैलानि आप्तुं न अर्हति.
तैलानि
अस्ति समीचीनं भगिनि. तत्र कुत्र एतत् कुत्र अस्ति भगिनि? एतत् श्लोकः
ईमेल् ईमेल् मध्ये.
किन्तु किन्तु कस्मिन् अन्तर्भूतः अस्ति एषः श्लोकः इत्युक्ते एतत् महाभारते अस्ति वा अथवा कस्मिन् ग्रन्थे?
एक संस्कृतकक्षा आन्लैन् कक्षा.
अस्तु 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 भगिनि अस्तु प्रेषयतु ईमेल् द्वारा प्रेषयतु भगिनि. धन्यवादः धन्यवादः. हा अस्तु. हा इदानीं केवलम् अन्तिमभागः अत्र अस्ति. यः न उक्तवान् एतावत् न पठितवान् अत्र सप्तमीभक्तिरूपं हा वदतु भगिनि. अस्तु वदतु. हराः
अराः अराः चक्रेषु सन्ति माधुर्यं फलेषु भवति. मृगाः वनेषु भवन्ति. अङ्गुलीयकानि अङ्गुलीषु सन्ति. आपणाः वीथीषु सन्ति. हंसाः वापीषु तरन्ति.
तत्र किमस्ति अत्र
प्रथम त्रीणि उदाहरणानि सर्वे सर्वे पदानि नपुंसकलिङ्ग बहुवचन अस्ति.
नपुंसक लिङ्ग बहुवचनं तत्र प्रातिपदिकं तत्र प्रथमविभक्ति एकवचनरूपं किम् अस्ति?
चक्रं फलं वनं
इति अस्ति. अग्रिमम् अत्र अङ्गुलीषु वातीषु क्षम्यतां वीतीषु वापीषु तत्र प्रथमविभक्ति एकवचनरूपं किम् अस्ति?
दीर्घ ईकारान्त स्त्रीलिङ्ग पदानि सन्ति. अङ्गुली वीथी वापी
इति अस्ति. समीचीनं भगिनि. अस्तु समीचीनं. इदानीम् अग्रिम
माधुर्यं फलेषु भवति. माधुर्यम् इति माधुरी अस्ति वा महोदय? प्रातिपदिकम् अस्ति द्वितीयपदे द्वितीय
माधुर्यमेव अस्ति तत्र. माधुर्यं सौन्दर्यम् इति वदामः सौन्दर्यं सुन्दरः अस्ति. सुन्दरः अस्ति अथवा सुन्दरी अस्ति. तस्मिन् अथवा तस्यां सौन्दर्यम् अस्ति तस्य भावः.
मधुर
अथवा सुन्दरता इति अपि अस्ति. सुन्दरता
अथवा मधुरम् अस्ति. मधुरा अस्ति
तत्र माधुर्यं
न महोदय मूलरूपं माधुर्यं मधुरः अस्ति. मधुरः एव
माधुर्यं भावः.
एतत् एतत् तत्र पदद्वयमस्ति भगिनि. सुन्दरः अस्ति तस्मिन् सौन्दर्यं तस्य तस्मिन् सौन्दर्यम् अस्ति भावः इति वदामः.
महोदय ते नास्ति सेपरेट् अस्ति वा महोदय?
भिन्नः भिन्नः. मधुरः इति मधुरः इति पुल्लिङ्गपदम् अस्ति. माधुर्यम् इति तु नपुंसकलिङ्गं पदम् अस्ति.
मधुरस्य माधुर्यं
मधुरस्य भावः माधुर्यं
भावः
भावः
महोदय भावः सदा नपुंसकलिङ्गे एकवचने भवति इति सत्यं
वा? न न एतत् एतत् रूपं तादृशम् अस्ति. सौन्दर्यं सुन्दरता अपि अस्ति.
भावः किमपि अस्ति गुणः अस्ति.
सुन्दरता सुन्दरता अपि अस्ति. सुन्दरता अपि भावः एव अस्ति. तत्र प्रयोगः भिन्नभिन्नप्रयोगाः सन्ति. पुल्लिङ्गे वा सुन्दर नपुंसकलिङ्गे सुन्दरत्वम् इति वक्तुं शक्नुमः, तस्य गुणः भावः सौन्दर्यं
सुन्दरता
अतः अनेकाः प्रयोगाः सन्ति. अत्र केवलम् अस्माकं विषयः मधुरः माधुर्यं, माधुर्यम् अस्ति मधुरस्य भावः इति. अस्तु इदानीम् अग्रे कः पठति? अस्तु अत्र नूतन अभ्यासः अस्ति अन्तर्भूतः अस्ति अत्र एव, रघुपतिमहोदय सूचितवान् तत्र एतत् कुर्मः. अस्तु इदानीं किं कुर्मः तत्र द्विवचने यदस्ति तत्र तत्र एतत् कुर्मः. अस्तु उषा भगिनी, तत्र गजे गजे इति तस्य द्विवचनरूपं
गजे
गजे सप्तमी अहं तत्र सप्तमीभक्ति एकवचनरूपं वदामि, द्विवचनरूपं वदतु भगिनि. सप्तमीभक्ति एव सर्वत्र गजे इति तस्य द्विवचनरूपं
गजे गजयोः
गजे गजयोः समीचीनं. गीताञ्जलि भगिनि तत्र आकाशे
आकाशे आकाशयोः
समीचीनं. वेणुगोपाल् महोदय ध्वजे
ध्वजयोः
ध्वजयोः. मधुसूदन महोदय विद्यालये
विद्यालयोः
विद्यालयोः. अस्तु समीचीनं. इदानीं इदानीं स्त्रीलिङ्गपदं अस्तु. शोभा भगिनी प्रेङ्कायां
प्रेङ्कयोः
प्रेङ्कयोः लतयोः समीचीनं. वंशीसुधा भगिनी वेदिकायां
वेदिकायां वेदिकयोः
वेदिकयोः. नरेश महोदय पिच्छिकायां
पिच्छिकयोः
पिच्छिकयोः समीचीनं. मधुसूदन महोदय वाटिकायां
वाटिकयोः
वाटिकयोः समीचीनं. समीचीनम्. अग्रे रघुपति महोदय तुणीरे
तुणीरयोः तुणीरयोः
तुणीरयोः तुणीरयोः समीचीनं.
तुणीरयोः अथवा
तुणीर अस्ति वा महोदय कुत्र अस्ति?
तुणीरं तुणीरम् इति अस्ति, तुणीरे इति अस्ति.
तुणीरे अस्तु
तुणीरे तत्र नपुंसकलिङ्गम् अपि पुल्लिङ्गं तत्र समानम् अस्ति, केवलम् एक प्रथमा अथवा द्वितीयविभक्ति तत्र रूपभेदं भवति, तदनन्तरं समानमेव अस्ति साधारणतया. अत्र तुणीरे साधारणरूपमेव दत्तमस्ति. गजयोः अस्ति तादृश एव तुणीरयोः इति भवति. अस्तु अग्रे भानुचैतन्य महोदय रणक्षेत्रे द्विवचनरूपं
महोदय कुत्र महोदय
कुत्रापि नास्ति महोदय. एतत् एषः अभ्यासः रघुपति महोदय सूचितवान् अतः तत्र रणक्षेत्रे इति दत्तमस्ति. इदानीं तस्य द्विवचनरूपं सप्तमीभक्ति द्विवचनरूपम् अहम् एकवचनरूपं वदामि, द्विवचनरूपं वदतु इति. रणक्षेत्रे
रणक्षेत्रे कुरुक्षेत्रे किं करणीयं महोदय? क्षम्यतां
द्विवचनरूपं वदनीयं महोदय. सप्तमीभक्ति एकवचनरूपं वदामि रणक्षेत्रे तस्य
रणक्षेत्रयोः.
तावदेव समीचीनं. अस्तु अग्रे उषा भगिनी कुटीरे
कुटीरयोः
कुटीरयोः समीचीनं. गीताञ्जलि भगिनी गृहे
गृहयोः
समीचीनं समीचीनं. इदानीं स्त्रीलिङ्गम् ईकारान्त स्त्रीलिङ्गम् आगच्छति. नरेश महोदय कूप्यां
किं
कूप्यां कूप्यां कूप्योः द्रोणी द्रोण्योः कूपी कूप्योः समीचीनं हा शोभा भगिनी नद्यां
नद्योः
नद्योः हा समीचीनं वंशीसुधा भगिनी प्रदर्शिन्यां
प्रदर्शिन्यां प्रदर्शिन्योः
प्रदर्शिन्योः समीचीनं हा
समीचीनम्
अस्तु मधुसूदन महोदय वाण्यां वाप्यां वाप्यां
वाप्योः
वाप्योः हा समीचीनं हा अस्तु हा इदानीम् एतत् सर्वं कृतं हा एतत् कुर्मः इदानीं हा इदानीं द्विवचनरूपं वदामि एकवचनरूपं वदन्तु अस्तु वेणुगोपाल् महोदय लतयोः एकवचनरूपं
लतयोः लतायां
हा लतयोः लतायां हा समीचीनं हा मधुसूदन महोदय नौकयोः
नौकयोः नौकायां
नौकायां हा समीचीनं नरेश महोदय पेटिकयोः पेटिकायां समीचीनं शोभा भगिनी निधानिकयोः
निधानिकायां
निधानिकायां समीचीनं हा इदानीं तत्र हा रघुपतिमहोदय द्रोण्योः एकवचनरूपं
द्रोणी द्रोण्यां
द्रोण्यां हा समीचीनं गीताञ्जलि भगिनी नद्योः एकवचनरूपं गीताञ्जलि भगिनी अस्ति
वा क्षम्यतां महोदय
नद्योः नद्योः द्विवचने अस्ति नद्यां समीचीनं हा उषा भगिनी दर्व्योः
दर्व्यां
दर्व्यां हा समीचीनं बाणचितनि महोदय पुनःपूरण्योः एकवचनरूपं हा पुनःपूरण्यां समीचीनं समीचीनं महोदय अस्तु हा इदानीं हा हा वंशीसुधा भगिनी तत्र पुनः अहं द्विवचनरूपं वदामि एकवचनरूपं सप्तमीविभक्ति हा स्यन्दनयोः
स्यन्दने महोदय
स्यन्दने हा समीचीनं हा हा सत्यं हा शोभा भगिनी नेत्रयोः
नेत्रे
नेत्रे समीचीनं नरेश महोदय द्वारयोः
द्वारे
द्वारे हा द्वारे हा मधुसूदन महोदय पुस्तकयोः
पुस्तके
पुस्तके समीचीनं महोदय अस्तु हा इदानीं तत्र अत्र हा प्रायशः अत्र द्विवचनमपि प्रष्टुं शक्नुमः एकवचनमपि प्रष्टुम् अस्तु एकवचनं पृच्छामि हा रघुपति महोदय मार्गेषु एकवचनं
मार्गे
हा अस्तु हा समीचीनं वेणुगोपाल महोदय कोशेषु
पुनः वदतु महोदय
कोशेषु इति अस्ति हा तस्य एकवचन हा कोशे समीचीनं गीताञ्जलि भगिनी वृक्षेषु
वृक्षे
वृक्षे हा समीचीनम् उषा भगिनी ग्रन्थेषु
ग्रन्थे
ग्रन्थे अस्तु इदानीं बाणचितनि महोदय शाकासु इति अस्ति तत्र एकवचनरूपं
शाखायां
शाखायां समीचीनं हा वंशीसुधा भगिनी पत्रिकासु
एकवचनरूपं महोदय
एकवचनरूपं हा एकवचनरूपं
पत्रिकासु पत्रिकायां
पत्रिकायां समीचीनं शोभा भगिनी गुहासु
गुहायां
गुहायां हा नरेश महोदय वाटिकासु
वाटिकायां
वाटिकायां समीचीनं हा इदानीं एकवचने तत्र मधुसूदन महोदय चक्रेषु
चक्रायां चक्रेषु चक्रं चक्रे
चक्रे समीचीनं हा वेणुगोपाल महोदय फलेषु
फले
फले हा फले समीचीनं सत्यं महोदय हा इदानीं वनेषु वने इति अस्ति हा इदानीं रघुपति महोदय अङ्गुलीषु एकवचने
अङ्गुली अङ्गुल्या अङ्गुल्याम्
अङ्गुल्यां हा समीचीनं गीताञ्जलि भगिनी तत्र वीतिषु एकवचने
वीत्यां
वीत्यां समीचीनं हा उषा भगिनी वापीषु
वाप्यां
वाप्याम् अस्तु समीचीनम् अस्तु धन्यवादः रघुपतिमहोदय इदानीम् अन्य नूतन अभ्यासः अत्र तत् जानामि तं जानामि अत्र अस्तु
भवानेव तदा करोति अभ्यासः
महोदय एकः प्रश्नः अस्ति महोदय अत्र वापीषु इति वापी पदम् अपि अस्ति वापी अपि दीर्घ ईकारः अपि अस्ति वा महोदय
हंसाः वापीषु तरन्ति
वापीषु पूर्वस्मिन् पृष्ठः जलं वाप्याम् अस्ति तत्र वापी इति अहं कूपी और नदी वापी इति अस्ति वा वापी
द्वौ अपि अस्ति
किन्तु समानार्थकम् अस्ति वा
समानार्थक एव
वापी ईकार लेक् अस्ति
हा अस्तु ओ समीचीनं धन्यवादः अस्तु अस्तु ह्रस्व इत्युक्ते
पाण्डुपूल् लेक्
हा उषा भगिनी एकवारं वदतु पुनरेकवारं वदतु
ह्रस्व ईकार पाण्ड् अस्ति वापी दीर्घ ईकार लेक् अस्ति
अस्तु समीचीनमस्ति
लार्ज्
अस्तु अस्तु
किन्तु तत्र महोदय पाण्ड् लेक् समान
समान
न न किन्तु तत्र वापी इति टेङ्क् अपि अस्ति वा वापी
टेङ्क् अपि अस्ति महोदय
पूल् अस्ति महोदय पूल् अस्ति
तत्र हा तत्र प्रायशः वापी इति यथा मानससरोवर अस्ति तत्र प्रायशः वापी दीर्घ इकारः एव प्रायशः सम्यक् अस्ति
सरोवर अपि पाण्ड् समानपदानि नास्ति सरोवर
लेक्
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 लेक् लेक् लेक् अपि पाण्ड् समानपदानि नास्ति लेक् सरोवर
तत्र तत्र भेदः अस्ति इति मन्ये भगिनि
पाण्ड्
सत्यं 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 हा एकं एक तत्र एकं लघु अस्ति एकं बृहत् अस्ति हा
दीर्घ ईकार बृहत् अस्ति अश्वत्
बहु सम्यक् समीचीनम् उषा भगिनी धन्यवादः बहु सम्यक् अस्ति अस्तु इदानीम् अत्र कोष्टके अग्रिम यदस्ति तद् प्रायशः वयं कर्तुं शक्नुमः इति मन्ये तत्र अभ्यासः एतावत् केवलम् अकारान्त इकारान्त दृष्टवन्तः किन्तु अत्र तु सर्वं दत्तमस्ति सप्तमीभक्तिरूपम् अतः एकवारम् एतत् कुर्मः सर्वं सप्तमीभक्तिरूपं साधारणसप्तमीविभक्तिरूपं जानीमः सर्वाणि रूपाणि अस्तु तत्र
अत्र दत्तमस्ति वाचस्पत्यम् अस्ति वापि एक एव वापि वाप् वप् प्लस् इञ् धातु अस्ति अथवा डीप् धातु अस्ति वा
अस्तु
वपयोग डीप् अस्ति वापि भवति वपयोग इञ् अस्ति वापि भवति
अतः एव द्रोणातु
बहुकी अपि दत्तमस्ति अस्ति द्रोणात् दशगुणा शापि इत्युक्तलक्षणे जलाशयभेदे
जलाशयः अस्तु द्वयमपि जलाशयः एव अस्ति किन्तु बृहत् लघु किमपि दत्तमस्ति चेत्
प्रत्ययभेदात् अस्ति एव अतः एतस्य प्रत्ययभेदः अस्ति
अस्तु महोदय तत्र तत्र लिङ्क् प्रेषयतु
एतत् गीताञ्जलि वाचस्पत्यम् अस्ति, वाचस्पत्यम् अस्ति,
अस्तु तत्र अस्ति, अस्तु अस्तु महोदय, अस्तु
अन्यः महोदय अन्यः विचारः अपि अस्ति, यदि वापि ह्रस्व इकारः अस्ति तत्र वाप्याः अस्ति वाप्यां नास्ति, जलं वाप्याम् अस्ति अत्र, यदि वापि यदि ह्रस्व इकारः अस्ति तत्र वाप्याः अस्ति वाप्यां नास्ति, अहं चिन्तयामि सप्तमी वाप्यामपि अस्ति वाप्यौ
मतिशब्दवत् अस्ति इति मन्ये,
आम् 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 धन्यवादः, आम् महोदय, वाप्यौ अपि सम्यक् एव, आम् आम् महोदय, द्वौ अपि समानः,
हरौ हरौ इति प्राशस तत्र इदानीम् इदानीमेव पश्यामः, अस्तु अस्तु तत्र किं कुर्मः, तत्र प्रथम अभ्यासः यदस्ति तत्र प्रायशः अकारान्त कृतवन्तः इकारान्त, अस्तु तद् किन्तु इदानीं वचनत्रयमपि कर्तुं शक्नुमः, अस्तु मधुसूदन महोदय तत्र अग्रिम अभ्यासः पठति वा,
यथोदाहरणं पूरयत अभ्यासम् आकारान्त पुंलिङ्गशब्दाः ग्रन्थः ग्रन्थे ग्रन्थयोः ग्रन्थेषु
इति शब्दविभक्तिरूपम् अस्ति महोदय खलु,
देहः देहे देहयोः देहेषु
इति अस्ति, समीचीनं वैद्यनाथन् महोदय अत्र अग्रिमं करोति वा जनः इति,
करोमि महोदय, जनः जने जनयोः जनेषु,
समीचीनं महोदय, अस्तु अग्रे वेणुगोपाल महोदय,
आम् महोदय, यज्ञः यज्ञोः यज्ञयोः यज्ञेषु,
समीचीनं महोदय, अस्तु अग्रे नरेश महोदय, कालः
कालः काले कालयोः कालेषु
कालेषु, समीचीनं, अस्तु अग्रे रघुपति महोदय तत्र अग्निः,
अग्निः अग्निः अग्नौ अग्नयोः अग्निषु, मुनिः मुनौ 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 मुन्योः मुनिषु
मुनिषु मुनिषु मुनिषु, समीचीनं महोदय, शोभा भगिनी अग्रे,
राशिः राशौ
राशौ
हरिः हरौ राशौ राश्योः राशिषु
राशिषु राशिषु, समीचीनं, वंशीसर भगिनी
राशिषु,
आं महोदय, गिरिः गिरौ गिर्योः
गिरिषोः
गिरिषोः गिरिषु
गिरिषु, समीचीनं भगिनी
महोदय, अत्र मम एकः प्रश्नः, यदि रामेषु अस्ति रकारः अस्ति तत्र शकारः भवति परन्तु देहेषु सम्यक् वा देहेषु सम्यक् वा महोदय,
तत्र केवलं सकारः कुत्र स्त्रीलिङ्गे भवति इति मन्ये भगिनि, भाषासु इति तादृश सकारः तत्र अत्र सर्वे सर्वत्र शु एव भवति इति मन्ये, किन्तु प्रश्नः समीचीनम् अस्ति, अस्तु अग्रे गीताञ्जलि भगिनि अग्रे, उषा भगिनि अग्रे,
उकारान्त पुंलिङ्गशब्दाः गुरुः गुरौ गुर्वोः गुरुषु, असुः असौ अस्वोः असुषु असुषु
असुषु,
इषुः इषौ इष्वोः
तावत् तावत् एव भगिनि, धन्यवादः, धन्यवादाः।
एकः प्रश्नः अस्ति महोदय, लिङ्गं शब्दं शब्दस्यापि विभक्ति अस्ति वा महोदय?
लिङ्गं वनम् इति तादृशरूपं
शब्दमञ्जरी पुस्तके लैक् अकारान्तः पुंलिङ्गः शब्दः इति दत्तमस्ति, परन्तु
अकाराः इति
शब्दाः
दत्तमस्ति, उकारान्तपुल्लिङ्गशब्दाः
तत्र तत्र लिङ्गः लिङ्गम् इति अन्यत् अस्ति, पुल्लिङ्गशब्दः अन्यत् अस्ति भगिनि, पुल्लिङ्गः पुल्लिङ्गशब्दः तत्
ऋकारान्तः पुंलिङ्गः पितृशब्दः
तत्र किं भवति पुल्लिङ्ग
किन्तु अत्र समस्तपदं
तत्र तत्र किञ्चित् कार्यम् अस्ति अतः तत्र लिङ्गपरिवर्तनं भवति, लिङ्गपदस्य परिवर्तनं पुल्लिङ्गः इति लिङ्गपरिवर्तनं भवति, किन्तु लिङ्गम् इति नपुंसकलिङ्गपदम् अस्ति भगिनि, पुल्लिङ्ग अथवा स्त्रीलिङ्गः शब्दः इति तस्य विशेषणं भवति, तत्र शब्दः पुल्लिङ्गे अस्ति इति कृत्वा पुल्लिङ्गः शब्दः पुल्लिङ्गाः शब्दाः इति भवति,
पुल्लिङ्ग अथवा पुंलिङ्ग महोदय,
पुल्लिङ्ग इति अहं वदामि प्रायः,
द्वित्वमस्ति लकार
तत्र इम् इति केचन वदन्ति, तत्तु सत्यमस्ति,
अनुस्वारस्य ये परसवर्णे अत्र अनु पुल्लकार अस्ति, द्वयमपि अस्ति अस्ति
एकनिमिषः एकनिमिषः, विषयान्तरं मास्तु, अत्र विषयः अस्ति सप्तमीविभक्तिरूपम्, एतत् सर्वं समीचीनमेव, किन्तु अस्माकं वर्गे इदानीं कुत्र अस्माकं कुत्र स्थापितुम् इच्छामः, कुत्र विषयान्तरं मास्तु, एतदेव प्रथमतया एतत् सप्तमीविभक्तिरूपं साधारणरूपं तस्य अवगमनं भवतु, अग्रे गत्वा अन्यत् सर्वं चिन्तयामः, अस्तु तत्र कुत्र स्मः, गीताञ्जलि उक्तवती वा
सम्पर्कः भग्नः प्रति
आगच्छामि, अस्तु महोदय अस्तु, गीताञ्जलि भगिनी अग्रे बाहुः
बाहुः बाहुः बाहौ बाहोः बाहुषु नो बाहोः
बाहोः
बाहोः बाहुषु
बाहुषु समीचीनं समीचीनं, अग्रे वेणुगोपाल महोदय अग्रे पठति वा तत्र,
अस्तु अस्तु महोदय, ऋकारान्तपुल्लिङ्गशब्दाः कर्ता कर्तरि कर्त्रोः कर्तृषु
कर्तृषु
पिता पितरि पित्रोः पितृषु,
समीचीनं महोदय, तत्र कर्तरि एतत् नाम एतदस्ति कर्तरी अपि अस्ति
कर्तरि
कर्तयति
कर्तयति
तत् तत् किमस्ति, एतत् कर्तरी अस्ति तत् कर्तरी अस्ति, भेदः कः, कर्तरी सीज़र्स् यदस्ति किन्तु एतत् कर्तरी अस्ति, भेदः कः अत्र, ह्रस्वैकारः दीर्घैकारः,
अस्तु दीर्घैकारः अस्ति चेत् किम् अस्ति महोदय,
सीज़र्स् अस्ति,
परन्तु तत्र
एकवचनविभक्ति अस्ति प्रथमाविभक्तिरूपं, सत्यं सत्यं नदी शब्दवन्तु, किन्तु एतत् कर्तरि कर्तरि तत्र तत्र अग्रे प्रायशः एतत् पश्यामः तस्य प्रयोगः सप्तविभक्तिरूपस्य प्रयोगः कुत्र भवति इति एतावत् न दृष्टवन्तः किन्तु श्यामः अस्ति इति चिन्तयतु श्यामे मम विश्वासः श्यामे अस्ति इति तादृशरूपं तादृशप्रयोगः भवति कोऽपि कर्ता अस्ति मम विश्वासः कर्तरी भवति तस्मिन् कर्तरी मम विश्वासः भवति इति तादृशवाक्यं वक्तुं शक्नुमः तत्र कर्तरी इति सप्तविभक्तिरूपम् अस्तु नरीश् महोदय योद्धा इति
योद्धति योद्धरो योद्धषु
कर्त्रोः इति अस्ति महोदय तत्र तत्र पिता पित्रोः
योद्धषु योद्धरि
कर्तृषु कर्ता हा पितृषु योद्धृषु हा समीचीनं महोदय
द्विवचने किम् अस्ति महोदय योद्धृः
दीर्घ अकार नास्ति वा योद्धा
योद्धारौ
योद्धारौ
योद्धरोः
योद्धोः तत्र कर्ता इति तत्र कर् तदनन्तरं ता इति अस्ति तत्र कर्तृ तत्र रेपद्वयम् अस्ति तत्र कर्तृ किन्तु अत्र किमस्ति पिता तत्र पितृ इति प्रातिपदिकमस्ति पितरि पित्रोः पितृषु योद्धा योद्धरी योद्ध्रोः योद्धृषु
योद्धरी एव अस्ति वा महोदय किमर्थं चेत् पिता ह्रस्व आकारः अस्ति पितरौ योद्धा योद्धारौ प्रथमविभक्ति महोदय
किन्तु सप्तम किन्तु कर्तरी कर्ता अपि तत्र
दीर्घ एव अस्ति वा
कर्तरी एव अस्ति
योधस्य द्वे अस्ति महोदय द्विरूपम् अस्ति द्वे रूपम् अस्ति इति योद्धा अन्यत् अस्ति योद्धा योद्धृ एकम् एतत् अन्यपि एके अस्ति अतः तत्र योद्धारौ इति भवति
ओ
हा अस्तु 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 सत्यं महोदय
तत्र
योधः इति
योधः योद्धारौ योद्धारः किमपि
अस्ति अस्तु अस्तु
महोदय योद्धा योद्धारौ योद्धारः
किन्तु सप्तविभक्तौ अहं चिन्तयामि तत्र योद्धरी योद्ध्रोः एव अस्ति
अस्तु महोदय
इति मम चिन्तनं तत्र कर्ता इव अस्ति इति मन्ये भगिनि सत्यं पिता अपि योद्धा अपि कर्ता तत्र भेदः अस्ति किन्तु योद्धा दाता कर्ता समानम् इति मन्ये भगिनि
महोदय एकः प्रश्नः महोदय योद्धा शब्दस्य प्रातिपदिकं किं
योद्धृ ऋकारान्त अस्ति महोदय पेज् 13 पश्यतु तत्र पेज् 13 एकनिमिष कत्र कुत्र अस्ति एतत् योद्धा तत्र पेज् 11 पश्यतु भवान् योद्धा
अस्तु
भवन्तौ योद्धारौ भवन्तः योद्धारः इति
अस्तु धन्यवादः
तत्र ऋकारान्तपदमस्ति तत्र कोष्टके न दत्तमस्ति किन्तु योद्धृ इति ऋकारान्तपदं पुल्लिङ्गपदं पितृ योद्धृ कर्तृ दातृ इति
अस्तु महोदय धन्यवादः
मधुसूदन महोदय अग्रे धाता इति करोति वा
आं महोदय धाता धाता
धातरे
धातरी
धातरी धात्रौ
धात्रोः
धात्रोः धात्री धातृषु
धातृषु धातृषु धातृषु
धातृषु धातृषु
पिता
पितरि धात्रोः
वदतु महोदय वदतु पुनरेकवारं
धातरी धात्रोः धातृषु
हा समीचीनं महोदय
महोदय अत्र योध इति युद्ध धातु अस्ति तृच् प्रत्यय योधृ भवति अच् प्रत्यय योज चेत् योद् योधा भवति योधा भवति पुल्लिङ्ग भवति द्वौ अपि अस्ति
योधा किन्तु ऋकारान्तपदमेव वा
ऋकार तृच् हा ऋकार योधृ योधृ अस्ति योधृ तृच् प्रत्यय योजनेन कृदन्तप्रत्ययोजनेन योधृ भवति अच् अपि अनन्तरं घञ् प्रत्ययः अस्ति तत् युद्धे अस्ति योधः भवति योधः प्रातिपदिक योधः
तदपि ऋकारान्तपदं
न न एतत् योध अकारान्त
योधः अस्तु अस्तु
अकारान्त योध तत् योधृ
अस्तु 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 हा अत्र ऋकारान्त अस्ति
अत्र ऋकारान्त
अस्तु हा शोभा भगिनी उत्तरं प्राप्तं वा
आं महोदय धन्यवादः महोदय
हा अस्तु अग्रे गच्छामः तत्र इदानीम् आकारान्तपदं स्त्रीलिङ्गपदं तत्र उषा भगिनी अग्रे पठति वा तत्र
आकारान्तस्त्रीलिङ्गशब्दाः सेना सेनायां सेनयोः सेनासु गीता गीतायां गीतयोः गीतासु
हा धन्यवादः भगिनि समीचीनं हा अत्र एव सकारः आगच्छति इति मन्ये हा अन्यत्र सर्वत्र शू एव अस्ति केवलम् आकारान्तस्त्रीलिङ्ग शब्दानां सप्तविभक्तौ बहुवचने सु इति भवति इति मन्ये वैद्यनाथन् महोदय अग्रिमं करोति वा अम्बा इति
अम्बा अम्बायां अम्बयोः अम्बासु
हा समीचीनं महोदय समीचीनं हा अस्तु हा इदानीं
परन्तु महोदय भवान् शब्दवत् भवत्सु भवति भवतीषु भवति महोदय किञ्चित् भेदः अस्ति
अत्र किम् अस्ति तदेव उक्तवान्
तत्र पुल्लिङ्गे सु अस्ति स्त्रीलिङ्गे शु अस्ति
सत्यं सत्यं समीचीनं समीचीनम् अस्तु अग्रे भगिनी भवती एव करोति वा अग्रे इकारान्त
स्त्रीलिङ्गशब्दाः इकारान्त स्त्रीलिङ्गशब्दाः श्रुतिः श्रुत्यां श्रुत्योः श्रुतिषु गतिः गत्यां गत्योः गतिषु अनन्तरं गत्यामिति गतौ अपि अस्ति महोदय
हा सत्यं तत्र मतिशब्दवत् तत्र किमस्ति इकारान्तस्त्रीलिङ्ग श्रुत्यामपि तस्य अन्यत् रूपम् अस्ति
श्रुतौ अस्ति
श्रुतौ एकवचने तत्र मतिशब्दस्य मतिशब्दस्य रूपद्वयम् अस्ति इति कृत्वा
गतौ
गतौ इति समीचीनं हा अस्तु अग्रे शोभा भगिनि तत्र
ईकारान्त ईकारान्त स्त्रीलिङ्ग
हा हा मनचित्रं महोदय अग्रे भवान् वदतु धन्यवादः शोभा भगिनी वदतु
ईकारान्त स्त्रीलिङ्ग शब्दाः नदी नदी नद्यां नद्योः नदीषु आवर्तिनी आवर्तिनी आवर्तिन्याम् आवर्तिन्योः आवर्तिनीषु
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 समीचीनं भगिनि धन्यवादः किम्
इत्युक्ते
किन्तु स्त्रीलिङ्गशब्द शकारान्त अपि
केवलम् अकारान्त स्त्रीलिङ्गपदे सु इति भवति सर्वदा सर्वत्र न केवलम् आकारान्तस्त्रीलिङ्गपदे किन्तु यथा वंशीसुधा भगिनी उक्तवती भवान् इति शब्दे भवत्सु इति भवति, अपि नदी इति नदीषु अस्ति, भवती इति भवतीषु इति भवति. मनुचतनी महोदय, इदानीम् उकारान्त स्त्रीलिङ्गशब्दाः.
महोदय आवर्तनी इत्युक्ते किं महोदय, किम् अवदत्?
वर्ल्पूल्.
वर्ल्पूल्, हा, यत्र
जले
जलस्य भ्रमणं भवति.
नद्यां
वर्ल्पूल् अहं रेफ्रिजरेटर्
अस्तु महोदय.
उकारान्त स्त्रीलिङ्गशब्दाः रज्जुः, रज्वां, रज्वोः, रज्जुषु. धेनुः धेन्वां, धेन्वोः, धेनुषु.
अग्रिममपि करोतु महोदय तत्र.
ऊकारान्त स्त्रीलिङ्गशब्दाः वधूः, वध्वां, वध्वोः, वधुषु, वधूषु. चमूः, चम्वां, चम्वोः, चमूषु.
हा, इति अस्ति. अस्तु, तत्र ऊकारान्त अपि स्त्रीलिङ्गशब्दः, तस्य रूपमपि जानीमः. इदानीं नरेश महोदय अग्रे तत्र ऋकारान्त.
ऋकारान्त स्त्रीलिङ्गशब्दः माता, मातरि, मात्रोः, मातृषु. अकारान्त नपुंसकलिङ्गशब्दः क्षेत्रं, क्षेत्रे, क्षेत्रयोः, क्षेत्रेषु.
अयनम्,
अयनम्, अयने, अयनौ, अयनयोः, अयनेषु.
हा, समीचीनं महोदय. हा, इदानीं वेणुगोपाल् महोदय अग्रे वदति वा तत्र स्यन्दनं.
आम् महोदय, स्यन्दनं सन्दने, सन्दनयोः, सन्दनेषु.
हा, स्यन्दने, स्यन्दने,
स्यन्दने, स्यन्दनयोः, सन्दनयोः,
स्यन्दनयोः,
सन्दनयोः,
स्यन्दनेषु,
स्यन्दनेषु.
हा, वैद्यनाथन् महोदय अग्रिमं तत्र शस्त्रम् इति करोति वा?
करोमि.
हा,
शस्त्रं, शस्त्रे, शस्त्रयोः, शस्त्रेषु,
शस्त्रेषु, शस्त्रेषु,
शस्त्रेषु.
हा, शस्त्रेषु. हा, समीचीनं. हा, समीचीनं. हा, अग्रे उषा भगिनी.
इकारान्त नपुंसकलिङ्गशब्दाः वारि, वारिणी, वारिणोः, वारिषु, अक्षि, अक्षिणी, अक्षण्योः, अक्ष्णोः, अक्षिषु.
अग्रे अपि
उकारान्त नपुंसकलिङ्गशब्दाः मधु, मधुनी, मधुनोः, मधुषु. जानु, जानुनि, जानुनोः, जानुषु. श्मश्रु, श्मश्रूणि, शंशृण्यो.
तत्र प्रायशः श्मश्रूणि इति प्रायशः णत्वं भवति इति मन्ये, श्मश्रूणि इति मन्ये. एकवारं द्रष्टव्यमस्ति. हा, अग्रे श्मश्रुणोः,
श्मश्रुषु,
श्मश्रुषु. हा, अन्तिमम्
श्मश्रु इत्युक्ते मुस्टेश् न महोदय.
एतत् श्मश्रु इति अस्ति.
द्विवचने अपि बहुवचने अपि अस्ति
श्मश्रु. किं भगिनि प्रश्नः कः?
श्मश्रु इत्युक्ते मुस्टेश्.
श्मश्रु,
एकवचने अपि अस्ति, द्विवचने.
हा, तत्र पुरुषद्वयमस्ति इति.
केवलम् उकारान्तस्य नपुंसकलिङ्गस्य रूपम् एव.
प्रश्नः, प्रश्नं न अवगतवान् भगिनि.
न महोदय, शंशुनि मुस्टेश् अस्ति, एकवचने अपि अस्ति, द्विवचने अपि अस्ति, बहुवचने अपि अस्ति वा?
किन्तु एकस्य पुरुषस्य इति न खलु. अनेकः पुरुषः
अश्रुणोः अश्रुषु
अश्रुषु इति अस्ति. अस्तु, इदानीं सप्तविभक्तिरूपं कीदृशम् इति दृष्टवन्तः. इदानीं एतद् यत् वयं कृतवन्तः तद् मनसि किञ्चित् स्थापयतु. अकारान्त वा ईकारान्त वा उकारान्त वा पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे रूपं कथम् अस्ति, एकवचने द्विवचने बहुवचने.
अहम् एकं वक्तुमिच्छामि, अत्र पेटर्न् अस्ति स्त्रीलिङ्गे स्वीकुर्मः चेत् यदा ईकार अस्ति चेत् तस्य यकार भवति ईकारस्य स्थाने, उकार अस्ति चेत् वकार भवति, पुल्लिङ्गले अपि तदेव समान एव किम् अस्ति, नपुंसकलिङ्गे न भवति उकारस्य, मधु मधुनि मधुनोः इति भवति. अपरं तु अकार आकार स्त्रीलिङ्ग अस्ति, तत्र बहुवचने द्विवचने केवलं ह्रस्व अकार एव भवति, अतः पेटर्न्
मनसि
स्थापनाय सुलभं भवति. रज्जु इति रज्वां रज्जु रज्वां वकार भवति, इकार नदी यकार भवति इति.
सत्यं महोदय, तत्र हा तत्र प्रायश किमपि तत् किमस्ति यण् सन्धि वा किमपि अस्ति खलु तत्र
अस्ति, तत् किमपि अस्ति, अस्य प्रयोगः अस्ति इकस्य स्थाने न उल्टा भवति, किमपि अस्ति तस्य कार्यं किमपि
पश्यामः अग्रे गत्वा पश्यामः. किन्तु पेटर्न् सम्यक् अस्ति महोदय, पेटर्न् सम्यक् अस्ति.
अन्यविषयः अपि अस्ति महोदय, अकारान्तपुल्लिङ्गे शब्दग्रन्थयोः अस्ति, आकारान्तस्त्रीलिङ्गसेनयोः अस्ति, अकारान्तनपुंसकलिङ्ग क्षेत्रयोः क्षेत्रोः नास्ति क्षेत्रयोः
सत्यं
सत्यं भगिनि सत्यं, तत्रापि यकारः अस्ति सत्यं सत्यं भगिनि. अस्तु अस्तु, धन्यवादः. अग्रिमवर्गे मिलामः, अग्रे सप्तविभक्तिरूपस्य किञ्चित् अभ्यासं कृत्वा तस्य प्रयोगः कुत्र कुत्र भवति इति पश्यामः. अस्तु, सर्वेभ्यो नमः, अग्रिमवर्गे मिलामः.
नमस्कारः,
धन्यवादः.
हरि ओं महोदय, धन्यवादः. नमस्कारः.